इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः झाः। आदौ मुख्याः वार्ताः। G7 इत्यस्य नेतारः वैश्विक स्थिरतां सुरक्षा सहकारं बहुराष्ट्रिय संघटित अपराधस्य प्रतिकार प्रयत्नांच केन्द्रीयमानाः घोषणानां श्रृंखलाः स्वीकृतवन्तः। फ्रांस देशस्य इवियान नगरे G7 इति शिखर सम्मेलनेन समं प्रधानमंत्री नरेन्द्र मोदी अमेरिका देशस्य राष्ट्रपतिना डोनाल्ड ट्रम्पेन सह मेलनं करिष्यति। सः फ्रांस देशस्य भ्रमणं भागत्वेन अद्य सायंकाले पेरिस नगरं प्राप्स्यति। रक्षामंत्री राजनाथ सिंहः भारतस्य सार्वभौमता निर्विवाद्यमिति कथयन् आतंकवादं विरुध्य सर्जिकल स्ट्राइक्स, बालाकोट, ऑपरेशन सिंदूर इत्येतानि च निर्णायकानि कार्याणि इति उदघोषयत्। भारतस्य रक्षोत्पादनं निवर्तमान वित्तीय वर्षे 0.78 लक्षं कोटि रूप्यकाणि अभिलेख्यं यावत् वर्धितम्। 2021 वर्षात् 10.1% वर्धितमस्ति। विद्रोह प्रतिरोध कार्याणि अभिलक्ष्य रक्षाबलानि सम्पूर्णे मणिपुरे सजगाः सक्रियाश्च सन्ति। 3 आतंकवादिनः गृहीताः। 26 अवैध अन्तः भूमियानि गुहास्थानानि नष्टानि। अपि च क्रीडावार्तासु पुरुष क्रिकेट क्रीडायां भारत अफगानिस्तान देशयोर्मध्ये त्रिक्रीडा श्रृंखलायाः द्वितीया एकदिवसीया क्रीडा लखनऊ नगरे प्रचलति। अथ वार्ताः विशदीकृत्य। G7 देशैः वैश्विक स्थिरतायाः सुरक्षा सहयोगस्य अथ सीमापार संघटित अपराध निवारणस्य उद्देश्येन विभिन्नाः प्रमुखाः घोषणाः विहिताः। मुख्य वक्तव्ये नेतृभिः अमेरिका ईरान देशयोर्मध्ये संजातं संधि निश्चयम् अभिनन्दितम्। सहैव होर्मुज जल संधौ सुरक्षित समुद्रीय परिवहनस्य महत्वं प्रतिपादितम्। क्षेत्रीय सुरक्षा संवर्धनाय च समर्थनं प्रदत्तम्। अन्य घोषणापत्रे G7 देशैः मादक द्रव्यस्य अवैध कार्यं निरोद्धुं संकल्पो विहितः। अस्मिन् अभियाने ब्राजील दक्षिण कोरिया देशौ अपि सहमतिं प्रदर्शितवन्तौ। अवैध मार्गान् रोद्धुं G7+ Ports Network इति नवमञ्चस्य प्रस्तावः दत्तः। फ्रांस देशस्य इवियन नगरे चलायमाने G7 शिखर सम्मेलने प्रधानमंत्री नरेन्द्र मोदी सर्वहितकारी सतत आर्थिक विकासः इत्याख्ये मुख्य विषये आयोजितायां महत्वपूर्ण कार्यगोष्ठ्यां भागं भजते। सत्रेऽस्मिन् G7 देशाः सहभागी राष्ट्राणि अन्ताराष्ट्रिय मुद्रा कोषस्य OECD इत्यस्य च प्रतिनिधयः उपस्थिताः सन्ति। अत्रावधेयं यत् अद्य सायं प्रधानमन्त्रिणः नरेन्द्र मोदिनः अमेरिका राष्ट्रपतिना डोनाल्ड ट्रम्पेण सह बहुप्रतीक्षिता द्विपक्षीय वार्ता भविष्यति। 25th-2000 फरवरी मासात् परं द्वयोः नेत्रोः इदं प्रथमं प्रत्यक्षतया सम्भाषणमस्ति। अमेरिका ईरान युद्धविरामस्य अथ होर्मुज जलसन्धेः पुनः उद्घाटनस्य पृष्ठभूमौ एषः संवादः अतीव महत्वपूर्णो वर्तते। उभौ नेतारौ द्विपक्षीय व्यापार सन्धिं समेत्य अतिरिक्तं वैश्विक समाह्वानानां समाधानाय चर्चां करिष्यतः। एतदतिरिच्य प्रधानमन्त्री कृत्रिम बुद्धिमत्तायाः सुरक्षित प्रभावी उपयोगः इति विषयमधिकृत्य कार्यमध्याह्न भोजे अपि भागं ग्रहीष्यति, यत्र प्रमुख AI विपणीनां मुख्याधिकारिणः समुपस्थिताः भविष्यन्ति। प्रधानमन्त्री नरेन्द्र मोदी फ्रांस देश प्रवासस्य भागत्वेन अद्य सायं पेरिस नगरं प्रतियेति। तत्रत्यः भारतीय समुदायः तदीय स्वागतार्थं महदुत्साहेन सज्जो वर्तते। श्वः प्रातः प्रधानमन्त्री प्रमुख विपणीनां मुख्य कार्यकारिभिः सह चर्चां करिष्यति, या मध्याह्न पर्यन्तं प्रचलिष्यति। तदनन्तरं सः यूरोप महाद्वीपस्य प्रमुख प्रौद्योगिकी मञ्चे विवाटेक् शिखर सम्मेलने भागं ग्रहीष्यति। तत्र च स्वसम्बोधनं प्रदास्यति। सायंकाले असौ एकस्मिन् सामुदायिक कार्यक्रमे भारतीय प्रवासिभिः सह संवादं विधास्यति। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि समुपलब्धो भविष्यति। रक्षामन्त्री राजनाथसिंहः अवोचत् यत् भयोत्पादनं विरुध्य शून्य सहिष्णुतायाः नीतिमनुसृत्य सर्जिकल स्ट्राइक्स, बालाकोट, ऑपरेशन सिन्दूर इत्यादीनि निर्णायक कार्याणि यावत् भारतदेशः स्पष्टं सन्देशं प्रेषितवान् यत् तस्य संप्रभुता निर्विवाद्या अस्तीति। सामाजिक प्रसार माध्यमे श्री सिंहः उल्लिखितवान् यत् प्रधानमन्त्रिणः नरेन्द्र मोदिनः योग्य नेतृत्वे भारते राष्ट्रिय सुरक्षा संरचनायाम् ऐतिहासिक परिवर्तनम् अभवदिति। सः इत्यपि अवोचत् यत् रक्षाक्षेत्रे आत्मनिर्भरतायाः विषये देशस्य संकल्पेन स्वदेशीय क्षमता सुदृढा, सशस्त्रबलानाम् आधुनिकीकरणं, भूमि समुद्र वायु साइबर अंतरिक्ष क्षेत्रेषु सज्जता च वर्धिता। रक्षामन्त्री अधोरेखितवान् यत् गत द्वादश वर्षाणां यात्रा दृढतरां, सुरक्षिताम्, आत्मनिर्भराम्, आधिक्येन आत्मविश्वासयुताञ्च भारतमातरं प्रतिबिम्बयति इति। रक्षामन्त्री राजनाथसिंहः अस्मिन् आर्थिकवर्षे भारतस्य वार्षिक रक्षा उत्पादनं सार्वकालिकं 0.78 लक्षं कोटिरूप्यकाणि यावत् औन्नत्यं प्राप्नोदिति अवोचत्। सामाजिक प्रसार माध्यमे श्री सिंहः अकथयत् यत् एषा उल्लेखनीया उपलब्धिः पूर्वतनस्य वित्तीय वर्षस्य 0.54 लक्षकोटिरूप्यकाणाम् उत्पादनस्य अपेक्षया 0.65% यावत् प्रभावोत्पादिका वृद्धिः 2021 वित्तीय वर्षाच्च 10.1% अस्ति। मणिपुरे सुरक्षाबलैः उदग्रवाद विरोधाभियानानि तीव्रीकृत्य 3 उदग्रवादिनः निगडिताः। सहैव 26 अवैध भूमियानि गुहास्थानानि विनष्टानि। आरक्षिबलानुगुणं निगृहिताः उदग्रवादिनः प्रतिबन्धित संघटनस्य पीपल्स लिबरेशन आर्मी PLA इत्यस्य सक्रिय सदस्याः सन्ति। ये पश्चिम इम्फाल मण्डलात् गृहीताः। एते अनेकेषु हिंसाचार अपराधेषु संलिप्ताः आसन्। अपरपक्षे कामजोंग उख्लोल मण्डलयोः सशस्त्र समूहैः उपयुज्यमानाः 26 अवैध गुहास्थानानि ध्वस्तीकृतानि। क्रिकेट क्रीडायां लखनऊ नगरे स्पर्धा त्रयाणां श्रृंखलायाः द्वितीयायाम् एकदिवसीय अन्ताराष्ट्रिय क्रिकेट क्रीडायाम् अफगानिस्तान देशं विरुध्य 1-0 अग्रस्थं भारतं 3-400 धावनांकानां लक्ष्यम् अददात्, यत्र दलनायकेन शुभमन गिलेन 1.5 शताधिकानि, ईशान किशनेन च 15 धावनांकानि रचितानि। इतः प्राग् अफगानिस्तान देशः पणकं विजित्य प्रथमतया क्षेत्ररक्षणम् अचिनोत्। पुनः एकवारं मुख्याः वार्ताः। G7 इत्यस्य नेतारः वैश्विक स्थिरतां, सुरक्षा सहकारं, बहुराष्ट्रिय संघटित अपराधस्य प्रतिकार प्रयत्नाञ्च केन्द्रीय मानाः घोषणानां श्रृंखलाः स्वीकृतवन्तः। फ्रांस देशस्य एवियान नगरे G7 इति शिखर सम्मेलनेन समं प्रधानमन्त्री नरेन्द्र मोदी अमेरिका देशस्य राष्ट्रपतिना डोनाल्ड ट्रम्पेन सह मेलनं करिष्यति। रक्षामन्त्री राजनाथसिंहः भारतस्य सार्वभौमता निर्विवाद्यमिति कथयन् आतंकवादं विरुध्य सर्जिकल स्ट्राइक्स, बालाकोट, ऑपरेशन सिन्दूर इत्येतानि च निर्णायकानि कार्याणि इति उदघोषयत्। भारतस्य रक्षोत्पादनं निवर्तमान वित्तीयवर्षे 0.78 लक्षं कोटिरूप्यकाणि अभिलेख्यं यावत् वर्धितम् इति वार्ताः।